इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीतत्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः पश्चिम एशिया द्वन्द्वस्य विषये कुवैत कतर ओमान देशानां नेतृभिः सह वार्तालापं कृतवान्। दूरभाषमाध्यमेन वार्तालापावधौ श्रीमोदी एतेषां देशानां सार्वभौमत्वस्य क्षेत्रीय अखण्डतायाः च उल्लङ्घनस्य दृढतया निन्दाम् अकरोत्। सः भारतीय समुदायस्य सुरक्षायै कल्याणाय च तेषां निरन्तर समर्थनस्य प्रशंसामपि अकरोत्। क्षेत्रीय शान्तेः स्थिरतायाः च यथाशीघ्रं पुनः स्थापनाय संवादस्य कूटनीतेः च महत्वमपि प्रधानमन्त्रिणा प्रतिपादितम्। सामाजिकान्तर्जालीये सन्देशे श्रीमोदिना लिखितं यत् कुवैत देशस्य युवराजेन शेख सबा अल खालिद अल हमद अल मुबारक अल सबाह इत्यनेन सह वार्तालापः अभवत्। अस्मिन् दुष्कर समये भारतं कुवैत देशस्य जनैः सह वर्तते इति श्रीमोदी अवदत्। प्रधानमन्त्री कतर देशस्य अमीरेण शेख तमीम बिन हमद अल थानी इत्यनेन सह अपि वार्तालापं कृत्वा कतर देशेन सह दृढं ऐक्यं प्रकटितवान्। श्रीमोदी ओमानस्य सुल्तानेन हैथम बिन तारिक इत्यनेन सहापि वार्तालापं कृत्वा पश्चिम एशियायाः वर्तमान स्थित्याम् अपि विचाराणाम् आदान प्रदानं कृतवान्। विदेशमन्त्री डॉ एस जयशंकरः ह्यः यूरोपीय संघस्य विदेश कार्यस्य तथा सुरक्षानीतेः उच्च प्रतिनिधिना कजाकल्लास इत्यनया सह गल्फ क्षेत्रे वर्धमानस्य संघर्षस्य विषये दूरभाषमाध्यमेन वार्तालापम् अकरोत्। भारतेन पश्चिम एशियायां विद्यमानस्य संघर्षस्य विषये संवादस्य कूटनीतेः च आह्वानं दृढतया प्रतिपादितम्। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः एकस्मिन् वक्तव्ये अवदत् यत् भारतं विवादस्य शीघ्र समाप्तेः पक्षे स्पष्टतया स्वरम् उत्थापयति। सः नष्टानाम् अनेकेषां जीवनानां विषये दुःखं प्रकटितवान्। प्रवक्ता अवदत् यत् गल्फ क्षेत्रे निवसन्तः कार्यं च कुर्वन्तः प्रायः एककोट्यधिकाः भारतीय नागरिकाः सन्ति। तेषां सुरक्षायाः कल्याणस्य च सर्वोच्च प्राथमिकता अस्ति। व्यापार ऊर्जा आपूर्ति श्रृंखलाः अस्मिन् क्षेत्रात् एव आगच्छन्ति इत्युक्त्वा जयसवालः अधोरेखितवान् यत् केनापि व्यवधानेन भारतीय अर्थव्यवस्थायां गभीरः प्रभावः भविष्यति। तेहराननगरे वर्धमान संकट धारणया ईरान देशस्य भारतीय दूतावासेन तेहराननगरे स्थितेभ्यः भारतीय छात्राः नगरात् बहिः सुरक्षितस्थानेषु स्थानान्तरिताः। एयर इंडिया संस्थायाः विमानं दुबई नगरात् नवदेहली नगरं सम्प्राप्नोत्। सामाजिक पटले एयर इंडिया इत्यनेन लिखितम् अस्ति यत् अस्मिन् विमाने ऊनपञ्चाशदधिकैकशत यात्रिणः अष्ट चालकदलस्य सदस्याः च आसन्। रंगपर्वाणाम् उत्सवः अद्य सम्पूर्णे देशे आचर्यते। एषः उत्सवः अशुभस्य उपरि शुभस्य विजयं सूचयति, वसन्त ऋतोः आरम्भोऽपि सूचयति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या अस्मिन् अवसरे देशवासीनां कृते शुभाशयाः प्रदत्तवती। स्वस्य सन्देशे राष्ट्रपतिः अवदत् यत् अयम् उत्सवः समाजे प्रेमस्य आशायाः च प्रसारं करोति तथा च सामाजिक समन्वयस्य भावं सुदृढं करोति। लोकसभायाः अध्यक्षः ओम बिरलावर्यः अपि नागरिकाणां कृते शुभकामनाः प्रदत्तवान्। अत्रान्तरे अद्य होली उत्सवस्यावसरे राष्ट्रिय राजधान्यां सुगम यातायात प्रवर्धनार्थं देहली यातायात आरक्षकैः विस्तृत व्यवस्था कृतास्ति। अपर आरक्षक आयुक्तः दिनेश कुमार गुप्ता ह्यः प्रसारमाध्यमैः सह वार्तालापं कुर्वन् एतत् उक्तवान्। ह्यः सायंकाले वर्मिंघम नगरे ऑल इंग्लैंड बैडमिंटन चैंपियनशिप स्पर्धा समारब्धा। पुरुष एकलस्य आरम्भिके चक्रे लक्ष्यसेनेन चीनदेशस्य शी युकी इत्यमुं पराजितम् इति वार्ताः।